वाम् रथम् पुरुभाजम् वा नोजुवम् जीरास्वम् यज्ञियम् जीवसे हुवे सहस्रकेतुम् बलिनम् सहस्रम् गृह्णीवानम् परिबोधामभिप्रजा ऊर्ध्वाधीतिः प्रत्यस्य प्रजा भन्यथायुषस्मन् समायन्त आदिशाः स्वदामि घर्मम् प्रतीयम् चूतया वा मूर्जानेकथमश्विनारभत् संयन्विधः पस्पृधानासो अग्मतसुभे मखा अमीताजाय पूरणे युवो रः प्रवणे चे किते रथो यदश्विनामः दस्सूरिमावरम् युवम् भुज्यम् भुरमाणम् विभिर्गतम् स्वयक्तिभिर्निवहन्ता पितृभ्यः राशिष्टम् भर्तिर्वेषणा विजेन्या युवो दासायमही चेति वामवाः युवो रश्विनामपूषे युवायुजम् रथम् वाणीयेमसुरस्य सध्यम् आवाम्पधित्वम् सख्याय जग्मुषी रोषा प्रणीतजेन्या युवाम्पति युवम् रेवम् परीषूतेरुरुष्यतो हिरेण घर्मम् परीतप्तमत्राजे युवम् सजोरमसम् व्यप्य दुर्गभिप्रदीर्घेण वन्दनस्थार्याजूषा युवम् वन्दनम् निर्वेदिम् जरण्यजालसन्नदस्रागरनासमिन्वतः क्षेत्रादाविप्रम् जनसाविपन्यजा प्रभामत्र विधते संसनाभवत् अगच्छतम् कृपमाणम् परामते पितः स्वस्य त्यज सा निबाधितम् सर्वदीरितभूतेर्यो नः चित्राभीके अभवन्नभिष्टायः उतस्या वाम् मधु मन्मक्षीकार मन्मते सोमस्यौ सुजोः वन्यति युवम् दधीचो मनावीवासतो दासिरः प्रतिभावश्यम् वदत् युवम् पेतवे पुरुवारामश्विना स्मृधाम् श्वेतम् तरुतारम् दुवस्यथः शर्यैरभिद्यम् प्रदानासु दुष्टरम् चक्रज्ञमिन्द्रामिव चर्षणी सहम्